ब्रह्मस्य श्रीभूतचरित्रस्य रुद्रऋषि महासरस्वती देवता अनुष्टुप् छन्दः भीमा शक्तिः ब्राह्मणी बीजम् सूर्यसत्त्वम् सामवेदस्वरूपम् महासरस्वती प्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः घण्टाशूलहलानिशङ्कमुसले चक्रम् धनुःसायकम् हस्ताब्जैर्दतीन्द्रनान्तविलसत् चीतांशुतुल्यप्रभाम् गौरीदेह समुद्भवाम् प्रियरताम् आधारभूतामहा पूर्वामत्र सरस्वतीमनुभये शुम्भादैत्यार्दिनी ॐ नमश्चण्डिकायै ॐ शिवाच पुरा शुम्भनिशुम्भाभ्यामस्वाभ्याम् शचीपते त्रैलोक्यम् यज्ञभागाश्चामृताश्रया तावेव सूर्यताम् तद्वक्रधिकारम् तथैन्दवम् कौबेरमदयाम्यम् च चक्राते वरुणस्य च तावेव पवनर्धिम् च चक्रतुर्वह्निकर्म च ततो देवाभिनिर्दूता भ्रष्टराज्याः पराजिताः ऋताधिकारान् सदृशान्ताभ्याम् सर्वे निराकृताः महासुराभ्याम् ताम् देवीम् संस्मरन्द्रपराजिताम् तयास्माकम् वरो दत्तो यथापत्सुस्मृता किलाः भवताम् नाशयिष्यामि दक्षिणात् परमापदः इति कृत्वा मतिम् देवायमवन्तम् नगेश्वरम् जग्मस्तत्र ततो देवीम् विष्णुमायाम् रतुष्टुभुः देवा ऊचु नमो देव्यै महादेव्यै शिवायै सततम् नमः नमः प्रकृत्यै भद्राये नियता प्रणदा स्मताम् रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्द्ररूपिण्यै सुखायै सततम् नमः कल्याणै प्रणताम् वृद्ध्यै सिद्ध्यै पूर्वमूल नमो नमः नैऋत्यै भूभृताम् लक्ष्मै शशवाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यातयै तथैव कृष्णायै ओम्रायै सकलम् नमः अतिसौम्यादिरौद्रायै नतासस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु उद्दिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः ज्ञादेवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै 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 नमो नमः ज्ञादेवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः इन्द्रियाणाम् अधिष्ठात्रे भूतानाम् चाकिलेशिरा भूतेषु सन्नतस्यै व्याप्तिदेव्यै नमो नमः चितिरूपेण याग्रस्तमेतद्व्याप्यस्थिता जगत् नमस्तस्यै 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 नमो नमः
पूर्वमयेश्च संश्रया तथा सुरेन्द्रेण दिनेषु सेविता करोतु सा नश्वरेश्वरी शुभानि भद्राण्यभिहन्तु चापदा या साम्प्रतं चोद्धतदैत्यतापितैः रस्माभिरीक्षा च सुरैर्नमस्यते या च स्मृता तत्क्षणमेव हन्तिनः सर्वापदो भक्तिविनम्रमूर्तिभिः ऋषिवाचो एवं स्थलादि उक्तानाम् देवानाम् तत्र पार्वती स्नातुमव्यायौतो ये जाह्नव्या नृपनन्दन सा प्रवीत्तान् सुरान् सुरभवद्भिः स्तूयते तृका शरीरकोशतश्चास्या समुद्भूता प्रवीच्छिवा स्तोत्रम् ममैतत्क्रियते शुम्भदैत्यनिराकृतैः देवैः समेतैः समरे निशुम्भेन पराजितैः शरीरकोशाद्यत्रस्या पार्वत्या निःसृताम्बिका कौशिकीति समस्तेषु ततो लोकेषु गीयते तस्याम् विनिर्गतायाम् तु कृष्णाभूतापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया ततोऽम्बिकाम् परम् रूपम् बिभ्राणाम् सुमनोहरम् ददर्शचण्डो मुण्डश्च भृत्यौ शुम्भनुशुम्भयोः ताभ्याम् शुम्भाय चाख्याता अतीव सुमनोहरा काप्यास्ते स्त्रीमहाराजो भासयन्ति हिमाचलम् नैव तादृक्पशिद्रूपम् दृष्टम् केनचिदुत्तमम् ज्ञायताम् काप्यसौ देवी गृह्यताम् च सुरेश्वरम् श्रीरत्नमति चार्वङ्गी द्योतयन्ति शस्त्रशा सा तु तिष्ठन्द्रैत्येन्द्र ताम् भवान् द्रष्टुमर्हति यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो त्रैलोके तु समस्तानि साम्प्रतम् भान्ति ते गृहे ऐरावतः समानीतो गजरत्नम् पुरन्दरा पारिजाततरुश्चायम् तथैवोच्चै श्रवाहया विमानम् हंससंयुक्तमेतत्तिष्ठपितेऽङ्गणे रत्नभूतमिहानीतम् यदासीद् वेदसोद्भुतम् निधिरेश महापद्मः समानीतो धनेश्वरा किञ्जल्कीनिम् ददौ चाद्यर्माला मम्लान पङ्कजाम् छत्रम् ते वारुणम् गे काञ्चनसलाभितिष्ठति तथायम् चन्दनवरो यः पुरासीत् प्रजापतेः मृत्योरुत्क्रान्तिदा नाम शकिरीशोकयारिता पाशस्सलिलराजस्य भ्रातुस्तव परिग्रहे निशुम्भस्याब्दिजाताश्च समस्ता रत्नजातया वह्निरमितौ गुभ्यो अग्निशौचे च वाससि एवम् दैत्येन्द्ररत्नानि समस्तान्यारितानि ते श्रीरत्नमनिषा कल्याणी त्वया कस्मान्न गृह्यते ऋषिर्वाचो निशम्येति वचः शुम्भ सुरता चण्डमुण्डयोः प्रेषयामास सुग्रीवम् भूतम् देव्यामासुरम् इति चेति च वक्तव्या सा गत्वा वचनान् मम यथा चाभ्येति सम्प्रीत्या तथा काव्यम् त्वया लघु सतत्र गत्वा यत्रास्ते शयोद्देशेति शोभने सा देवी ताम् ततःप्राहुषक्ष्णम् मधुरया गृहा भूतौवाचो देवी दैत्येश्वर शुम्भस्त्रैलोक्ये परमेश्वरः दूतोऽहम् प्रेषितस्तेन तत्सकाशम्याग्रहा अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु निर्जिताग्रदैत्यादी सयदावशृणुश्रुततो महतैलोक्यमखिलम् मम देवावशानुगा यज्ञभागानाम् सर्वानुगाश्नामी पृथक् पृथक् त्रैलोक्ये वररत्नानि मम वश्यान्निशेषतः तथैव गजरत्नम् च रथा देवेन्द्रवाहनम् क्षीरोदमतनोद्भूतमश्वरत्नमापरैः उच्चैः श्रवसौ सौम्यम् तर्पणिपत्य समर्पितम् यानि चान्यानि देवेषु गन्धर्वेषु रगेषु च रत्नभूतानि भूतानि तानि मय्येव शोभने श्रीरत्नभूताम् त्वाम् देवी लोके मन्यामहे वयम् सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् माम् वाम् मामिलम् वापि निशुम्भमुरुविक्रमम् मयत्वम् चञ्चलापाङ्गी रत्नभूतासि वै यतः परमैश्वर्यमतुलम् प्राप्स्यसे मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहताम् व्रज ऋषिरुवाच इत्युक्त्वा सा तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्रायेदम् राजते जगतो देव्युवाच सत्यमुक्तम् त्वया नात्र मिथ्या किञ्चित् त्वयोदितम् त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किम् त्वत्र यत्प्रतिज्ञातम् मिथ्या तत्क्रियते कथम् श्रूयतामल्पबुद्धित्वा पदज्ञाया कृता पुरा यो माम् जयति सङ्ग्रामे यो मे दर्पम् व्यपोहति यो मे प्रतिबलो लोके स मे भर्ता भविष्यति तदागच्छतु शुम्भोऽत्रो न शुम्भो वा महासुरः माम् जित्वा किम् चरेणात्र पाणिम् गृह्णातु मे लघु दूत उवाच अवलिप्तासि मैवम् त्वम् देवि ब्रूहि महाकृता त्रैलोक्ये कः पुमाम् सृष्टे तग्रे शुम्भनिशुम्भयोः अन्येषामपि दैत्यानाम् सर्वे देवा न वैयुधि तिष्ठन्ति सम्मुखे देवी किम् पुनः स्त्री त्वमेकिका इन्द्राद्या सकला देवास्तस्तुर्येषाम् न संयुगे शुम्भादीनाम् कथम् तेषाम् श्रीप्रयासस्य सम्मुखम् सा त्वम् गच्छ मयिवोक्ता पार्श्वम् शुम्भनुशुम्भयोः एषाकर्षणनिर्धूतो गौरवामागमिष्यसि देव्युवाच एवमेतद्बली शुम्भो निशुम्भश्चातिवीर्यवान् किम् करोमि प्रतिज्ञामे यदनादोषिता पुरा सर्वम् गच्छ मयोक्तम् ते यदेतत् सर्वमारता तदा चक्ष्वा सुरेन्द्राय स च युक्तम् करोतु गतो जगदम्बार्पणमस्तु नमश्चण्डिकायै ॐ ऋषिर्वाच इत्याकर्णवचो देव्या सौदुरो महर्षपूरितः समाजश्च समागम्य दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराटतः सक्रोधप्राह दैत्यानामधिपम् धूम्रलोचनम् हे धूम्रलोचना श्रुत्वम् स्वसैन्यपरिवारितः कामानैव आकृष्टाम् एषाकर्षण विफला तत्प्राक्रान्तश्चिद्यदिवोत्तिष्ठते परः सह मन्दव्योमरो वापि यक्षो गन्धर्व एव वा ऋषिर्वाचो एलाप्यप्तस्ततः शीघ्रम् स दैत्यो धूम्रलोचना मृतश्रष्ट्या सहस्राणाम् असुराणाम् धृतम् ययौ स दृष्ट्वा ताम् ततो देवीम् तुहिनाचल संस्थिताम् जगालोचे प्रयाहीति मूलम् शुम्भनुशुम्भयोः न चेत् प्रीत्या च भवति मद्भर्तारमुपैष्यति ततो बलान्मयामेष केशाकर्षणविह्वला देवी उवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृता बलानयसिमामेवम् ततः किम् ते करोम्यहम् शिशुर्वाच इत्युक्तः स्वप्रधावत्तामसुरो धूम्रलोचना हुङ्कारेणैव तम् भस्म सा चकाराम्बिका तथा अथ क्रुद्धम् महासैन्यमसुराणाम् तथाम्बिका भवरशसायकैस्तीक्ष्णैः तथा शक्तिपरश्वधैः ततो दुर्धरकोपात् ज्ञात्वा नादम् सुबहिरवम् पपातासुरसेनायाम् सिंहो देव्या सुवाहना कांश्चित्करप्रहारेण दैत्यानास्येन चापुरान् आक्राम्यचारेणान्यान् सुजान् महासुरान् केषाञ्चित् प्राणयामासो नखैः कोष्ठानि केशरि तथा तत्प्रहारेण शिरांसि कृतवान् पृथक् विच्छिन्नराशिरसः कृतास्ते नतापरे पपौ चतुरम् कोष्ठादन्येषाम् धृतकेशरः क्षणेन तद्वलम् सर्वम् स्वयम् नीतम् महात्मना तेन केशरिणा देव्या वाहनेनातिगोपिना श्रुत्वा तमसुरम् देव्या निहतम् धूम्रलोचनम् बलम् चक्षतम् कृष्णम् देवी केशरिणाधरा चुकोपदैत्याधिपति शुम्भ प्रस्फुरिताधरा आज्ञापयामास चतौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्डबलैर्बहुभिः परिवारितौ तत्र गच्छत गत्वा च सा समानीयताम् लघु केशेष्वाकृष्यवद्वा वा यदि वः संशयो युधि तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् तस्याम् हतायाम् दुष्टायाम् सिंहे च विनिपात्यते शीघ्रमागम्यताम् भद्वा गृहीत्वा तामताम्बिकाम् जगदम्बार्पणमस्तु ॐ नमश्चण्डिकायै ॐ ऋषिरुवाच आज्ञत्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः चतुरङ्गवलोकेतायुरभ्युतदायुधाः दर्शुस्ते ततो देवीमीषद्धासाम्यवस्थिताम् सिंहस्योपनिशैलेन्द्रो शृङ्गे महति काञ्चने ते दृष्ट्वा ताम् समादातु मध्यमम् चक्रुरुद्गताः आकृष्टचापासिधराः तथा नेतत्समीपकाः ततः कोपम् चकारोच्चैरम्बिका तानरीम् प्रति कोपेन चास्या वदनम् मसीवर्णमभूत्तदा भृपुणीकुटिला तस्या ललाटफलकान्द्रुतम् कालीकरालवदना विनिष्क्रान्तासि पाशिनि विचित्रघटवाङ्गदा नरमाला विभूषण वीर्विचर्मपरीदाना शुष्कमांसातिभैरवा अतिविस्तारवदना जिह्वालदनभीषणा निमग्नारक्तनयना नादा पूरितदेहमुखा सा वेगेनाविपदा घातयन्ती महासुरान् सैन्ये तत्र सुरारीणाम् भक्षेत तद्बलम् पार्ष्णिग्राहाङ्क्षग्राही योधघण्टा समन्वितान् समादायैव हसेन मुखे चिक्षेपवारणान् तथैव योधम् दुरगैरथम् सारथिना सह निक्षिप्यवक्त्रेक्षणैश्चर्वयन्त्यतिभैरवम् एकम् जग्राहकेशेषु ग्रीवायामथ चापरम् कालेनाक्रम चैवान्यमुरुसान्योपबोधयत तैर्मुक्तानि च शस्त्राणि महास्त्राणि दासुरैः मुखेन चक्राकर्षणैर्मथितान्यपि बलिनाङ्गतबलम् सर्वमसुराणाम् दुरात्मनाम् ममर्ता भक्षयश्चान्यान्यांश्चाताडयत्तथा असिनानि यदा केचित् केचित् खड्वाङ्गताडिताः जगुर्विनाशमसुरा दन्ताग्रापि हतास्तदा क्षणेन तद्बलम् सर्वमसुराणाम् निपातितम् दृष्ट्वा चण्डोऽपिद्रावो ताम् कालीमतिभीषणाम् शर्ववर्षे महाभीमैर्भीमाक्षीम् ताम् महासुरा चादयामाश्चक्रैश मुण्डक्षिप्तैः सहस्रशा कानि चक्राण्यनेकानि विषमानानि तन्मुखम् बभूर्यथार्कबिम्बानि सुबहूनि गनोदरम् ततो जहासादिरुषा भीमम् भैरवनादिनि कालीकरालवक्त्रान्तदुर्दर्शदशनोज्ज्वला वृथाय च महासिंहम् देवी चण्डमधावतो गृहीत्वा चासकेशेषु शिरस्तेनासिनाच्छिनतो अधमुण्डोऽप्यधावत्ताम् दृष्ट्वा चण्डम् निपातितम् तमप्यपादयद्भूमौ सा खड्गाभिहतम् वृषा रथशेषम् ततः सैन्यम् दृष्ट्वा चण्डम् निपातितम् मुण्डमहावीर्यम् दिशो भेदे भयातुरम् शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च राह प्रचण्डाट्टासौ मिश्रमभ्येत चण्डिकाम् मया कवातौ भरतौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयम् शुम्भम् निशुम्भम् च हनिष्यसि ऋषिर्वाच कालानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाच कालीम् कल्याणी ललितम् चण्डिकावचा यस्माच्चण्डम् च मुण्डम् च गृहीत्वा त्वमुपागता चामुण्डे ततो लोके ख्याता देवी भविष्यति जगदम्बार्पणमस्तु ॐ नमश्चण्डिकायै ॐ ऋषिर्वाच चण्डे जने दैते मुण्डे च विराजते बहुलेषु च सैन्येषु क्षयितेषु सुरेश्वरः ततः कोपराधीन चेता शुम्भप्रतापवान् उद्योगम् सर्वसैन्यानाम् दैत्यानामादिदेश अद्य च सर्वबलैर्दैत्याः षडशीतिलालयाः कम्बूनाम् चतुर्शीतिर्निर्यान्तो स्वबलैर्वृताः कोटिवीर्याणि पञ्चाशत्सुराणाङ्कुलान् वै शतमङ्कुलानि धौम्राणाम् निर्गच्छन्तु माज्ञया कालकादौरुदा मौर्याः कालकेया सदासुराः युद्धाय सच्चान्द्रियान्तु आज्ञयाकृता मम इत्यान्याप्यासुरपतिः शुम्भो भैरवशासना निर्जगामहासैन्य सहस्रैर्भोभिर्वृता कायान्तम् चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् जास्मैः पूरयामास धरणी गगनान्तरम् तदस्यम्भो महानादो मतीव कृतवान् नृप घण्टास्वनेन तन्नाद मम्बिका चोपबृंहयत धनुर्जासिंहघण्टानाम् नादा पूरितदिमुखा निनादैर्भीषणैः काली जिज्ञे विस्तारितान्ना तम् निनादमुपश्रुत्य दैत्यसैन्यैश्च दृशम् देवी सिंहस्तथा काली सरोषैः परिवारिताः एकस्मिन्नन्तरे भूप विनाशाय सुरक्षाम् भवायामरसिंहानामतिवीर्यबलान्विताः ब्रह्मेशुको विष्णूनाम् उपेन्द्रस्य च शक्त्रयः शरीरेभ्यो विनिष्वरम्यो तद्रूपैश्चण्डिकाम्ययौ यस्य देवस्य यद्रूपम् यथा भूषणवाहनम् तद्वदेवैतच्छक्तिरसुरान्योद्धुमाययौ हंसयुक्तविमानाग्रे साक्ष्यसूत्रकमण्डलौ आयाता ब्रह्मणः शक्तिर्ब्रह्माणि सा विधीयते माहेश्वरी विषारूढा त्रिशूलवरधारिणी महायुवलया प्राप्ता चन्द्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरवरवाहना योद्धुमव्यायौ दैत्या नम्बिका गुहरूपिणी तथैव वैष्णवी शक्तिर्गरुडोपरि संस्कृता शङ्खचक्रगदा शार्ङ्ग खड्गहस्ताभ्युपाययौ यज्ञवाला मधुरम् रूपम् व्या बिभ्रतो हरेः शक्तिः साप्यायौ तत्र वाराही बिभ्रति धनुम् नारसिंहेन्द्रसिंहस्य बिभ्रति सदृशम् वपु प्राप्ता तत्र सदाक्षेप क्षिप्तनक्षत्रसम्मति वज्रास्तादयैरी गजराशोपरिस्था प्राप्ता सहस्रनयना यथा शक्रसदैव सा ततः परिवृतस्तादीरीशानो देवशक्तिः अन्यतामसुरा शीघ्रम् मम प्रीत्याः चण्डिकाम् ततो देवि शरीरात्तो विनिश्वान्तातिभीषणा चण्डिका शक्तिरत्युग्रा शिवा शतनादिनि साकारधूम्रजटिलोमीशानोमराजिका दूतत्वम् गच्छ भगवन् पार्श्वम् शुम्भन् शुम्भयोः रोहिशुम्भम् शुम्भम् च दानवावति गर्वितौ ये चान्ये दानवा स्वत्र युद्धाय समुपस्थिताः त्रैलोक्यमिन्द्रो लभताम् देवाः सन्तु हविर्भ्या यूयम् प्रयातकालम् यदि जीवितुमिच्छत बलावले पादत चेत् भवन्तो युद्धकाङ्क्षणा यतो नियुक्तोदौ तेन तया देव्या शिव स्वयम् शिवदूतीति लोकेऽस्मिन् ततः साख्यातिमागताम् तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातम् महासुराः महर्षा पूरिता जग्मुर्यत्र कात्यायणी स्थिता ततः प्रथममेवाग्रे शर्षकृष्टिवृष्टिभिः नवर्षरुद्धतामर्षास्तान् देवी ममरार्या सान् प्रेतान् बाणान् शुलशक्तिपरश्वरान् चिच्छेदुल्यादमात धनुर्मुक्तैर्महेषुभिः तस्या कृतसदा काली शूलपापविदारितान् खट्वाङ्गपोषितान् शालीन् कुर्वन्ती विचरक्षा कमण्डलक्षेपो हरवीर्यानतौ तथा ब्रह्माणि जागरोच्छत्रून् येन येन स्मधावति माहेश्वरी शुभ्रेण तथा चक्रेण वैष्णवी दैत्यानजगानकौमारी तथा शक्त्यातिकोपना ऐन्द्रीपुरुषपातेन शतशो दैत्यदानवाः पेतुर्विदारिता पृथ्व्याम् हृदरोहप्रवर्षणा कुण्डप्रहारविध्वंसा ध्वंसाकृष्टपवक्षता बालामूर्त्यानिपतंश्चक्रेण चतुरारिताः विश्रान्यान् भक्षयन्ती महासुरान् नारसिंही च रागालौ नादा पूर्णदिगम्बरा चण्डाट्टाः सैरस्वः शिवदूत्यभिदूषिताः ते तु पृथिव्याम् पतितान् तां च खादात साधता इति मातृणम् क्रुद्धम् मरतयन्तम् महासुरान् विश्वाभिपायैर्विभैर्नेष्वदैवादिसैनिकाः परायन परान् दृष्ट्वा दैत्यान् मातृगणार्दतान् योद्धुमभ्यायो वृतो रक्तबीजो महासुरा रक्तबिन्दुरिता भूमौ पतत्यस्य शरीरता समुत्पतति मे दिन्याम् तत्प्रमाणस्तदा सुरा युजय सकलापाणि रङ्गशक्त्या महासुरा ततश्चेन्द्रियसुवज्रेण रक्तबीजमताडयतो पुरुषेणा तस्याशु बहु शुश्रावशोणितम् समुत्तस्तुस्ततो योगास्तद्रूपास्तत्पराक्रमाः यावन्तः पतिरास्तस्य शरीरात् रक्तबिन्दवा तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ते चापि योधस्तत्र पुरुषा रक्तसम्भवाः समम् मात्रभिदत्युग्र शस्त्रपातातिभीषणम् पुनश्च वज्रपातेन क्षतमस्य शिरो यदा वाहरक्तम् पुरुषास्ततो जाता सहस्रशा वैष्णवी समरे चैनम् चक्रेणाभिजगानो विदयाताडयामासो ऐन्द्रितमसुरेश्वरम् वैष्णवी चक्रभिन्नस्य रुद्रस्रावसम्भवैः सहस्रशो जगद्व्याप्तम् तत्प्रमाणैर्महासुरैः शक्त्याजगानकौमारी वाराही त्रिलहासिना माहेश्वरी त्रिशूलेन रक्तबीजम् महासुरम् स चाविगदयादित्यः सर्वा एवाहनपृथग् मातुः कोपसमाविष्टो रक्तबीजो महासुरा तस्याः तस्य बहुधा शक्तिशूलादिभिर्भुवि उपातो वैरक्तोगस्तेना सञ्चतसोऽसुराः तैश्चासुरासृक्सम्भूतैरसुरैश्च सलम् जगतो व्याप्तमासीत् ततो देवा भयभाजगमनुत्तमम् तान्षण्णान् सुरान् दृष्ट्वा चण्डिकारप्राहसत्वरा उवाचकालीम् चामुण्डे विस्तीर्णम् वदनम् कुरु मच्छस्रपात्सम्भूतान् रक्तबिन्दून्महासुरान् रक्तबिन्दो प्रतीच्छत्वम् वक्त्रेणानेन वेगिना वक्षयन्ती च रणे तदुत्पन्नान् महासुरान् एवमेष क्षयम् दैत्यक्षीणरक्तोपमिष्यति लक्ष्यमाणास्तया चोग्रा न चोत्पत्स्यन्ति चापरे इत्युक्त्वा तान्द्रो देवी शूरेणाभिजगानतम् मुखेन काले जगृहेण बीजस्य शोणितम् ततो सा वाजगानाथो गदया तत्र चण्डिकाम् न चास्या वेदनाम् चक्रे गदा पातोर्पिकामपि तस्याः तस्य देहात्तु बहु शुश्रावशोणितम् यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीक्षति मुखे समुद्रिता यस्य रक्तपातान् महासुराः ताम् चकादात चामुण्डा बहु तस्य च शोणितम् देवी शूलेन वज्रेण प्राणैरसिभिरेष्टिभिः जघानरक्तगीयन्तम् चामुण्डापि च शोणितम् स्वपालमही पृष्ठे शस्त्रसङ्गसमाता नीरक्तश्च मही पालो रक्तबीजो महासुरा तदस्ते हर्षमतुलमुरापुस्तृतृशानृको तेषाम् मातृगणो जातो न नर्तासिर्मदो जगदम्बार्पणमस्तु।